महाराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जैन्यां महाकालम् ओंकारममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम् सेतुबन्धे तु रामेशं नागेशं दारुकावने वाराणस्या तु विश्वेशं त्र्यंबकं गौतमी तटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायं प्रातः पठिन्नरः सप्त जन्म कृतं पापं स्मरणेन विनश्यति एतेषां दर्शनादेव आतकं नैव तिष्ठति कर्मक्षयो भवेतस्य यस्य तुष्टो महेश्वरः सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जैन्यां महाकालम् ओंकारममलेश्वरम् वैद्यनाथं च डाकिन्यां भीमशंकरं सेतुबन्धे तु रामेशं नागेशं दारुकावने वाराणस्या तु विश्वेशं त्र्यंबकं गौतमी तटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायं प्रातः पठिन्नरः सप्त जन्म कृतं पापं स्मरणेन विनश्यति एतेषां दर्शनादेव आतकं नैव तिष्ठति कर्मक्षयो भवेतस्य यस्य तुष्टो महेश्वरः सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जैन्यां महाकालं ओंकारममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरं सेतुबन्धे तु रामेशं नागेशं दारुकावने वाराणस्या तु विश्वेशं त्र्यंबकं गौतमी तटे हिमालये तु केदारं घुष्मेशं च शिवालये एतानि ज्योतिर्लिंगानि सायं प्रातः पठिन्नरः जन्म कृतं पापं स्मरणेन विनश्यति एतेषां दर्शनादेव आतकं नैव तिष्ठति कर्मक्षयो भवेतस्य यस्य तुष्टो महेश्वरः। सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्, उज्जैन्यां महाकालम् ओंकारममलेश्वरम्। परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम्, सेतुबन्धे तु रामेशं नागेशं दारुकावने। वाराणस्या तु विश्वेशं त्र्यंबकं गौतमी तटे, हिमालये तु केदारं घुष्मेशं च शिवालये। एतानि ज्योतिर्लिंगानि सायं प्रातः पठिन्नरः, सप्तजन्म कृतं पापं स्मरणेन विनश्यति। एतेषां दर्शनादेव आतकं नैव तिष्ठति, कर्मक्षयो भवेतस्य यस्य तुष्टो महेश्वरः। सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्, उज्जैन्यां महाकालम् ओंकारममलेश्वरम्। परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम्, सेतुबन्धे तु रामेशं नागेशं दारुकावने। वाराणस्या तु विश्वेशं त्र्यंबकं गौतमी तटे, हिमालये तु केदारं घुष्मेशं च शिवालये। एतानि ज्योतिर्लिंगानि सायं प्रातः पठिन्नरः, जन्म कृतं पापं स्मरणेन विनश्यति। एतेषां दर्शनादेव आतकं नैव तिष्ठति, कर्मक्षयो भवेतस्य यस्य तुष्टो महेश्वरः। सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्, उज्जैन्यां महाकालम् ओंकारममलेश्वरम्। परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम्, सेतुबन्धे तु रामेशं नागेशं दारुकावने। वाराणस्या तु विश्वेशं त्र्यंबकं गौतमी तटे, हिमालये तु केदारं घुष्मेशं च शिवालये। एतानि ज्योतिर्लिंगानि सायं प्रातः पठिन्नरः, सप्तजन्म कृतं पापं स्मरणेन विनश्यति। एतेषां दर्शनादेव आतकं नैव तिष्ठति। कर्मक्षयो भवेतस्य यस्य तुष्टो महेश्वरः। सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जैन्यां महाकालम् ओंकारममलेश्वरम्। परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम्। सेतुबन्धे तु रामेशं नागेशं दारुकावने। वाराणस्या तु विश्वेशं त्र्यंबकं गौतमी तटे। हिमालये तु केदारं घुष्मेशं च शिवालये। एतानि ज्योतिर्लिंगानि सायं प्रातः पठिन्नरः। सप्तजन्म कृतं पापं स्मरणेन विनश्यति। एतेषां दर्शनादेव आतकं नैव तिष्ठति। कर्मक्षयो भवेतस्य यस्य तुष्टो महेश्वरः। सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जैन्यां महाकालम् ओंकारममलेश्वरम्। परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम्। सेतुबन्धे तु रामेशं नागेशं दारुकावने। वाराणस्या तु विश्वेशं त्र्यंबकं गौतमी तटे। हिमालये तु केदारं घुष्मेशं च शिवालये। एतानि ज्योतिर्लिंगानि सायं प्रातः पठिन्नरः। जन्म कृतं पापं स्मरणेन विनश्यति। एतेषां दर्शनादेव आतकं नैव तिष्ठति। कर्मक्षयो भवेतस्य यस्य तुष्टो महेश्वरः। सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जैन्यां महाकालम् ओंकारममलेश्वरम्। परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम्। सेतुबन्धे तु रामेशं नागेशं दारुकावने। वाराणस्या तु विश्वेशं त्र्यंबकं गौतमी तटे। हिमालये तु केदारं घुष्मेशं च शिवालये। तानि ज्योतिर्लिङ्गानि सायं प्रातः पठिन्नरः सप्तजन्म कृतं पापं स्मरणेन विनश्यति। एतेषां दर्शनादेव आतकं नैव तिष्ठति। कर्मक्षयो भवेतस्य यस्य तुष्टो महेश्वरः। सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जैन्यां महाकालम् ओंकारममलेश्वरम्। परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम् सेतुबन्धे तु रामेशं नागेशं दारुकावने। वाराणस्या तु विश्वेशं त्र्यम्बकं गौतमी तटे हिमालये तु केदारं घुश्मेशं च शिवालये। एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठिन्नरः जन्म कृतं पापं स्मरणेन विनश्यति। एतेषां दर्शनादेव आतकं नैव तिष्ठति। कर्मक्षयो भवेतस्य यस्य तुष्टो महेश्वरः। सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जैन्यां महाकालम् ओंकारममलेश्वरम्। परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम् सेतुबन्धे तु रामेशं नागेशं दारुकावने। वाराणस्या तु विश्वेशं त्र्यम्बकं गौतमी तटे हिमालये तु केदारं घुश्मेशं च शिवालये। एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठिन्नरः सप्तजन्म कृतं पापं स्मरणेन विनश्यति। एतेषां दर्शनादेव आतकं नैव तिष्ठति। कर्मक्षयो भवेतस्य यस्य तुष्टो महेश्वरः।